इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। मन्त्रिमण्डलेन केरल राज्यस्य नाम केरलम् इति परिवर्तितुं प्रस्तावः स्वीकृतः। आर्थिक कार्य मन्त्रिसभा समित्या महाराष्ट्रस्य मध्यप्रदेशस्य बिहारस्य झारखण्डस्य च अष्ट मण्डलेषु त्रिषु बहुविध प्रकल्पानाम् अनुमोदनं स्वीकृतम्। सर्वोच्च न्यायालयेन पश्चिम बंगस्य मतदातृ सूच्यां विशेष सघन पुनरीक्षणस्य आक्षेपाणां निवारणाय समीपस्थ राज्ययोः झारखण्ड ओडिशयोः सिविल न्यायाधीशाः न्यायिक पदाधिकारिणः च नियोक्तुम् अनुमतिः प्रदत्ता। अगरतलातः मार्गेण ढाका नगरे प्रविश्य कोलकाता नगरं प्रति यात्री बस यान सेवा बहुकालानन्तरम् अद्य पुनः समारब्धम्। अपि च आईसीसी पुरुषाणां 20-20 क्रिकेट विश्व चषक क्रीडायां इंग्लैंड दलम् अद्य सायंकाले श्रीलंका देशस्य पाल्ले केले अन्तर्राष्ट्रिय क्रिकेट क्रीडांगणे द्वितीयायां समुत्कृष्टाष्ट स्पर्धायां पाकिस्तानेन सह स्पर्धिष्यति। अथ वार्ताः विस्तरेण। केन्द्रीय मन्त्रिमण्डलेन सेवातीर्थस्य सेवासंकल्प प्रस्तावस्य अन्तर्गतं नागरिक केन्द्रित शासनाय स्वस्य प्रतिबद्धता पुनः पुष्टीकृता, यस्याः उद्देश्यं 47-2000 भारतं समृद्धं आत्मनिर्भरं च राष्ट्ररूपेण विश्वस्य प्रमुखेषु त्रिषु अर्थव्यवस्थासु अन्यतमं कर्तुं च अस्ति। मन्त्रिमण्डलीय सभायाः अनन्तरं नवदिल्ल्यां प्रसारमाध्यमैः सह वार्तालापं कुर्वन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः सूचितवान् यत् मन्त्रिमण्डलेन केरल राज्यस्य नाम केरलम् इति परिवर्तयितुं प्रस्तावः स्वीकृतः अस्ति।
जब से भाषा के आधार पर राज्यों के डिलिमिटेशन हुए तब से एक बड़ी डिमांड थी कि केरला का नाम केरलम होना चाहिए। आज इस फैसले के बाद में माननीय राष्ट्रपति जी केरला ऑल्टरेशन ऑफ नेम बिल 2026 राज्य की विधानसभा के पास भेजेंगे और उनके निर्णय के आने के बाद में भारत सरकार इसमें अगला स्टेप लेगी।
आर्थिक कार्य मन्त्रिसभा समित्या महाराष्ट्रस्य मध्यप्रदेशस्य बिहारस्य झारखण्डस्य च अष्ट मण्डलेषु त्रिषु बहुविध प्रकल्पानाम् अनुमोदनमपि स्वीकृतम्। मन्त्रिमण्डलेन गुजरात मेट्रो रेल कॉर्पोरेशन लिमिटेड इत्यस्य GIFT नगरात् शाहपुर पर्यन्तं विद्यमानः उत्तर दक्षिण मार्गस्य विस्तारोऽपि अनुमोदितः। सर्वोच्च न्यायालयेन कलकत्ता उच्च न्यायालयस्य मुख्य न्यायाधीशं पश्चिम बंगस्य मतदातृ सूच्यां विशेष सघन पुनरीक्षणस्य SIR इत्यस्यान्तर्गतं 80 लक्षाक्षेपाणां निवारणाय समीपस्थ राज्ययोः झारखण्ड ओडिशयोः सिविल न्यायाधीशाः न्यायिक पदाधिकारिणः च नियोक्तुम् अनुमतिः प्रदत्तास्ति। मुख्य न्यायाधीशस्य सूर्यकान्तस्य नेतृत्वे पीठेन कलकत्ता उच्च न्यायालयस्य मुख्य न्यायाधीशस्य पत्रस्य संज्ञाने अस्मिन् अभ्यासे संलग्नानां 250 मण्डल न्यायाधीशानां सत्यापन प्रक्रियां पूर्त्यै प्रायः 80 दिवसानाम् आवश्यकता भविष्यति। समयाभावे सर्वोच्च न्यायालयेन अतिरिक्त सिविल न्यायाधीशानां नियोजनस्य अनुमतिः प्रदत्ता। कलकत्ता उच्च न्यायालयेन च झारखण्डात् ओडिशा राज्यात् च समान पद न्यायिक पदाधिकारिणः अन्वेष्टुं च कथितम्। न्यायालयेन निर्वाचनायोगाय राज्यद्वयोः अधिकारिणां परिनियोजनस्य व्ययः वहतुमपि निर्दिष्टम्। निर्वाचनायोगं फरवरी मासस्य 28 दिनाङ्के अन्तिम मतदातृ सूचीं प्रकाशयितुम् अपि अनुमतिः प्रदत्ता, तथा च स्पष्टं कृतं यत् सत्यापनावश्यकतायां पूरक सूचयः प्रसारणीयमेव। पूर्वं पश्चिमबंगसर्वकारस्य निर्वाचनायोगस्य च विवादस्य विषये चिन्तां प्रकटयन् न्यायालयेन संशोधिताभ्यासं समाप्त्यर्थं सहायतायै सेवारतानां पूर्वमण्डल न्यायाधीशानां च नियुक्त्यै आदेशः प्रदत्तः आसीत्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः महाराष्ट्रस्य द्विदिवसीय यात्रायै अद्य अपराह्ने मुंबई नगरं सम्प्राप्तवती। मुंबई नगरस्य छत्रपति शिवाजी महाराज अन्तर्राष्ट्रिय विमानस्थानके राज्यपालेन आचार्य देवव्रतेन तस्याः स्वागतं विहितम्। मुख्यमंत्री देवेन्द्र फडणवीसः, उपमुख्यमंत्री एकनाथ सिंदे, सुनेत्रा अजित पवारः च उपस्थिताः आसन्। राष्ट्रपति शीघ्रमेव लोकभवने पीडी हिंदुजा चिकित्सालये आयोजिते सेविंग्स लाइव्स एंड बिल्डिंग अ हेल्दियर भारत इत्येतस्य राष्ट्रव्यापी अभियानस्य आरंभः करिष्यति। स्वः राष्ट्रपतिः बुल्धाना मंडलस्य शेगांव नगरे केन्द्रीय आयुष मंत्रालयेन आयोजिते 26,000 राष्ट्रिय आरोग्य मेलापकस्य उद्घाटनं करिष्यति। तदनन्तरं सा नागपुरनगरे ब्रह्म कुमारीति संस्थया आयोजिते एकता विश्वासाभ्यां महाराष्ट्रस्य स्वर्णयुगः राज्यस्तरीयस्य कार्यक्रमस्य उद्घाटने भागं भजिष्यति। उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः अद्य नवदिल्ल्यां यूएस इंडिया स्ट्रेटेजिक पार्टनरशिप फोरम इत्यनेन आयोजिते 26,000 पर्यटन नेतृत्व शिखर सम्मेलनम् उद्घाटितवान्। अस्मिन् अवसरे श्री राधाकृष्णनवर्यः अवदत् यत् पर्यटनम् उद्योगात् अपि अधिकम् अस्ति, संस्कृतेः मध्ये सेतुः अस्ति, आर्थिक अवसराणां परिचालकः च अस्ति। सः अवदत् यत् पर्यटनं मृदुकूटनीतेः एकं प्रबलं साधनमस्ति तथा च भारत अमेरिका आर्थिक मार्गस्य प्रमुखः स्तम्भोऽपि अस्ति। उपराष्ट्रपतिः राधाकृष्णनवर्यः अवदत् यत् पर्यटनं बृहत्तम वृत्त्यावसर निर्मातृषु अन्यतमम् अस्ति इति। सः पर्यटनक्षेत्रस्य सर्वसमावेशकं सुस्थिरं च विकासं सुनिश्चेतुं कौशलेषु उद्यमशीलतायां महिलानेतृत्व उद्यमेषु च निवेशं कर्तुं प्रार्थितवान्। मुख्य निर्वाचनायुक्तेन ज्ञानेश कुमारेण देशे शुद्ध मतदातृसूच्यां बलं प्रदत्तता उक्तं यत् एतत् कस्यापि लोकतन्त्रस्य आधारः अस्ति इति। अद्य नवदिल्ल्याः भारतमण्डपे भारतस्य निर्वाचनायोगस्य तथा राज्यनिर्वाचनायुक्तानां राष्ट्रियवर्तुलोत्पीठिकासम्मेलनम् अभिसम्बोधयन् श्रीकुमारः उक्तवान्। मुख्यनिर्वाचनायुक्तः अवदत् यत् सर्वे योग्याः मतदातारः मतदातृसूच्यां समाविष्टुं विशेष गहन संशोधन प्रक्रिया आरब्धास्ति। निर्वाचनायोगः मतदातृसूचीं शुद्धं सुलभं च कर्तुं पारदर्शितायै मतदातृणां सुगमतायै च महत्वं प्रददाति इति श्रीकुमारेण दृढतया उक्तम्। सम्मेलनस्य प्राथमिकः उद्देश्यः निर्वाचनायोगस्य राज्यनिर्वाचनायुक्तानां च कार्येषु निर्वाचनप्रक्रियायाः विषये तेषां विधिसंरचनायाः अन्तर्गतं समन्वयस्य संवर्धनमस्ति। अवधेयं यत् 27 अनन्तरं वर्तुलोत्पीठिकासम्मेलनम् आयोजिता अस्ति। अन्तिमम् एतादृशं सम्मेलनं 99-29 वर्षे आयोजितमासीत्। भारतस्य केन्द्रीय पूर्वोत्तर क्षेत्र विकास मन्त्री ज्योतिरादित्य एम सिंधिया वर्यः अद्य दक्षिण देहली नगरस्य मालवीय नगरे अरुणाचल प्रदेशस्य त्रयाणां युवतीनां जातीयोत्पीडनस्य प्रकरणे चिन्तां प्रकटितवान्। सामाजिकान्तर्जालीये पटले लिखिते एकस्मिन् सन्देशे श्री सिंधिया अवदत् यत् सः अरुणाचल प्रदेशस्य मुख्यमन्त्री पेमा खांडू इत्यनेन सह वार्तालापं कृतवान्। प्रतिवेशिनः बांग्लादेशस्य वर्तमान राजनैतिक विकासस्य दृष्ट्या अगरतलातः मार्गेण ढाका नगरे प्रविश्य कलकत्ता नगरं प्रति यात्री बस सेवा बहुकालानन्तरं अद्य पुनः समारब्धा। आईसीसी पुरुषाणां 20-20 क्रिकेट विश्व चषक क्रीडायां इंग्लैंड दलम् अद्य सायंकाले श्रीलंका देशस्य पल्लेकेले अन्तर्राष्ट्रिय क्रिकेट क्रीडांगणे द्वितीयायां समुत्कृष्टाष्ट स्पर्धायां पाकिस्तानेन सह स्पर्धिष्यति इति वार्ताः।